एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण पञ्चदश जनपदानां द्वयोः लक्ष्ययोः एकसप्ततेः सहस्राणां च विपन्न गृह परिवाराणाम् अन्तिम सूची स्वीकृतास्ति। श्रावणस्य दशमे दिवसे उपविष्टस्य मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ, सर्वकारेण सप्तपञ्चाशदुत्तर द्विसहस्रतम वैक्रमाब्दीयायाः विपन्न परिवार परिचय पत्र वितरण निर्देशिकाया अनुसारेण ओखलडुंगा, कञ्चनपुर, गुल्मी, दोलखा, धनुषा, नुवाकोट, बारा, पर्सा, बैतडी, मनाङ, मुस्ताङ, रूपन्देही, सर्लाही, सप्तरी, सिन्धुपाल्चोक जनपदानाम् विपन्न गृह परिवारान् परिचित्य ते सूचीकृता वर्तन्ते। प्रवक्ता गुरूङ सर्वकारेण विश्वकोशात् प्रादेशिक स्थानीय मार्ग सुधार कार्यक्रम अन्तर्गतम् प्राप्यमाणम् त्रयोदशानाम् अब्जानाम् त्रयत्रिंशतः कोटीनाम् च रूप्यकाणाम् सौविध्यपूर्णम् ऋणम् स्वीकर्तुम् निर्णीतम् अस्तीति अज्ञापयत्। एवमेव मन्त्री परिषदः उपवेशेन एतद् विक्रमवर्षीयम् नेपाल विश्वविद्यालय पूर्वाधार विकास पूर्व कार्य समिति संघटन द्वितीय संशोधनाध्यादेशम् स्वीकर्तुम् निर्णीतम् अस्तीति मन्त्री गुरूङ असूचयत्। संसदीय श्रवण समित्या निर्वाचन आयोगस्य आयुक्त पदे परामृष्टस्य कृष्णमान प्रधानस्य नाम अस्वीकृतमस्ति। ह्यः उपविष्टेन समितेः उपवेशेन प्रधानस्य नाम अस्वीकर्तुम् निर्णीतमस्तीति सूचनायाम् उल्लिखितम् वर्तते। ह्यः श्रवण समितेः उपवेशात् पूर्वम् प्रधानेन निर्वाचन आयुक्त पदात् स्वकीयम् नाम प्रत्यावर्तयितुम् निवेदनम् दत्तमासीत्। समित्या तस्य नाम निवेदनस्य आधारे निर्वाचन आयुक्त पदे अस्वीकर्तुम् निर्णीतमस्ति। सांविधानिक परिषदा निर्वाचन आयुक्त पदे परामृष्टस्य कृष्णमान प्रधानस्य विरूद्धे महिला हिंसायाः दुर्व्यवहारस्य च निवेदनम् श्रवण समितौ प्राप्तमासीत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन राष्ट्रियसभायाम् उत्पन्नम् गतविक्रमवर्षीयम् हुतात्म दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालय विधेयकम् आधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। प्रस्तावाय उपवेशेन स्वीकृति प्रदानानन्तरम् विधेयके संशोधन प्रस्तावस्य प्रस्तुते सभामुखेन देवराज घिमिरे विधेन इच्छुक सांसदेभ्य अनुमतिः प्रदत्ता च वर्तते। एवमेव उपवेशेन राष्ट्रियसभायाम् उत्पन्नम् गतविक्रमवर्षीयम् विधायन सम्बद्धम् विधेयकञ्च प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेष्यतामिति प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। प्रतिनिधिसभायाः ह्यस्तनोपवेशे गृहमन्त्री रमेश लेखकः विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् सार्वजनिक महत्वस्य प्रस्ताव सर्वकाराय कार्यम् कर्तुम् मार्गदर्शकः सम्भवतीत्यतः समय सापेक्ष कार्यविधौ योजनासु विधेय परिमार्जने च एवंविध विषयान् समाविश्य अग्रे वर्धिष्यते इति उदैरयत्। गृहमन्त्री लेखकः विपदः पूर्व कार्याणि प्रतिकार्यस्य कार्यञ्च राष्ट्रिय कार्ययोजनायाः अनुसारेण समेषाम् अन्तर्गतस्य निकायानां समन्वयेन सर्वकारेण विधीयमानानि सन्तीति असूचयत्। उपवेशे सांसदः डाक्टर तोषिमा कार्की अत्यावश्यक सार्वजनिक महत्वस्य प्रस्तावम् प्रस्तौत्। सांसद कार्की विपद व्यवस्थापनस्य पुनरावलोकनम्, बृहद् गुरू योजना निर्माणम्, स्वास्थ्य संकटस्य पूर्वकारण चेति सम्बन्धे विमृष्टुम् आवश्यकत्वात् सार्वजनिक महत्वस्य प्रस्तावस्य प्रस्तुति विहितेति समस्पष्टयत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदेन प्रेम सुवालेन उत्थापितम् प्रश्नम् उत्तरयन् स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः नूतन सन्ततौ वर्धितम् तमालजन्य पदार्थस्य प्रयोगम् न्यूनीकर्तुम् विद्यालय विश्वविद्यालय स्तरस्य पाठ्यक्रमेषु विषयोऽयं समावेक्ष्यते। जनसञ्चेतनां विस्तार्य स्वास्थ्य मन्त्रालयेन विशेषाभियानं सञ्चाल्य च समस्यायां समाधातुं शक्यते चेति अवदत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदाः पश्चातन समये निरन्तरेण मार्ग दुर्घटनानां कारणेन बहुषु जनैः अकाले प्राणहापनस्य स्थितिरस्तीति विषये सर्वकारस्य ध्यानम् आकर्षयन् सांसदा ह्यः पोखरायां विद्यालय बसयानस्य दुर्घटनायाम् आहतानां जनानां निःशुल्कम् उपचाराय तीव्रगतेः कारणेन दुरापन्नायाः घटनायाः विषये प्रभावकारिणी अनुगमनाय च अभ्ययासन्त। राष्ट्रपतिना रामचन्द्र पौडेलेन सह जापान देशस्य सांसदः प्रतिनिधिसभायाः न्यायिक विषय समितेः सभापतिना तोकेबे अराता इत्यस्य प्रतिनिधिमण्डलेन मेलवार्ता विहिता वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालय ह्य सम्भूते मेलने राष्ट्रपति पौडेल नेपाल जलस्रोत पर्यटन कृष्यादि क्षेत्रे सुनिवेशनाय उपयुक्त वातावरणमा स्थिति अभाषत। सर्वकारेण सम्प्रत्य विधिम संशोध्य निवेशनाय उपयुक्त वातावरण सृष्टमिति चर्चयन् राष्ट्रपति पौडेल नेपाल निवेशनाय जापान देशीयान व्यवसायिन अनुरुणत। जापान देशीय व्यवसायिन नेपाले निवेशम कर्तुम इच्छुका सन्ति, त्यत निवेशनाय वातावरणम सहजम विधातुम सुशासनम संस्थापयितुम च ध्यानम आकर्षितवन्त आसन। प्रधानमन्त्री केपी शर्मा ओली कथयति नेपालस्य साहित्यकारेषु युगकवि सिद्धिचरण श्रेष्ठ सामाजिक न्यायिक सञ्चेतनाया रूपेण उच्चस्तरीय कवि वर्तते। युगकवि सिद्धिचरण श्रेष्ठस्य त्रयोदशाधिक शततम्या जन्म जयन्त्या अवसरे सिद्धिचरण प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली साहित्यिक रूपेण सिद्धिचरण श्रेष्ठात् आत्मना प्रभावितमस्तीति अगदत्। तदवसरे एकलक्ष्यस्य रूपेकाणां युगकवि सिद्धिचरण पुरस्कार प्राध्यापकाय डाक्टर उषा ठाकुर इत्यस्मै प्रदत्तः आसीत्। संक्रमणकालिक न्याय सम्बद्धम विधेयकम अन्तिमे चरणे प्राप्तमस्ति। गृहमन्त्रालये ह्य उपवेशे संक्रमणकालिक न्याय सम्बद्धम विधेयकम एतत्पूर्व विमृष्टान विषयान एकीकृत्य केन प्रकारेण अग्रे वर्धितुं शक्यते इत्यवस्थायां प्राप्तमस्तीति नेकपा एमाले दलस्य मुख्य सचेतक पदीयो महेश वर्तौला अज्ञापयत्। विधेयके विद्यमानान भाषाया विधि शब्दानां च संयोजनं कथं विधातुं शक्यते इत्यस्मिन् विषये विधि मन्त्रिणा महान्यायाधिवक्त्रा सचिव प्रभृतिभि च पदाधिकारीभि सह विमृष्टमिति मुख्य सचेतक पदीयो वर्तौला अज्ञापयत्।